सप्तशकम् 54 कालियस्य यमुना हृदय निवासस्य कारण वर्णनम् शालिनी छन्दस् त्वत्सेवोत्कस् सौभरेर्नाम पूर्वम् कालिन्द्यन्तर्द्वादशाब्दम् तपस्यन् मीनव्राते स्नेहवान् भोगलोले तार्क्ष्यं साक्षादैक्षताग्रे कदाचित् त्वद्वाहन्तं सक्षुधन्त्रक्षसूनुं मीनं कञ्चिज्जक्षतं लक्षयन् सः तप्तश्चित्ते शप्तवानत्र चेत्त्वं जन्तून् भोक्ता जीवितं चापि मोक्ता तस्मिन् काले कालियः क्ष्वेलदर्पात् सर्पारातः कल्पितं भागमश्नन् तेन क्रोधात्त्वत्पदाम्भोजभाजा पक्षक्षिप्तस्तद्दुरापम्पयोगात् घोरे तस्मिन् सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् पक्षिव्राताः पेतुरभ्रे पतन्तः कारुण्यार्द्रं त्वन्मनस्तेन जातम् काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तं त्वय्युद्दामग्रीष्मभीष्मोष्मतप्ताः गोगोपाला व्यापिबन् क्ष्वेलतोयम् नश्य जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन् अच्युतत्वन्दयार्द्रः प्राप्योपान्तं जीवयामासि तत्रा पीयूषाम्भो वर्षिभिः श्रीकटाक्षैः किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः दृष्ट्वाग्रे त्वां त्वत्कृतं तद्विदन्तः त्वामालिङ्गं दृष्टनानाप्रभावाः गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् द्रागाववृः सर्वतो हर्षबाष्पम् व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा आश्चर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितो भूः एवं भक्तान्मुक्तजीवानपि त्वं मुग्धापाङ्गैरस्तरोगांस्तनोषि तादृग्भूतस्फीतकारुण्यभूमा रोगात्पाया वायुगेहाधिवास सदा सर्वत्र गोविन्दरामसङ्कीर्तनं गोविन्दा गोविन्दा नारायणा अखिलगुरो भगवन् नमस्ते।